इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। आदौ मुख्य वार्ताः। विश्वस्य बृहत्तमस्य लोकसभानिर्वाचनस्य सप्तमान्तिमचरणाय पञ्चवादनान्तं यावत् प्रायशः 58% मतदानं समुट्टंकितम्। अद्यैव ओडिशा विधानसभायाः 42 आसनेभ्यः अपि मतदानं जातम्। अरुणाचल सिक्किम प्रदेशयोः विधानसभानिर्वाचनस्य मतगणना श्वो भविता। तैल विपणन उद्योगैः व्यावसायिक परिपूरित वातेन्धनस्य मूल्येषु प्रायशः 70 रूप्यकाणाम् अपचितिः कारितास्ति। सहैव वायुयानेन यानेन्धने अपि 6.5% अवनतिः घोषितास्ति। अपि च कुन्तक प्रक्षेपणे भारतस्य डीपी मनु इत्यनेन अद्य ताइवान देशे 0.85-81 मीटरम् यावत् कुन्तकं प्रक्षिप्य सर्वश्रेष्ठ प्रदर्शन पूर्वकं स्वर्ण पदकं विजितम्। अथ वार्ताः विस्तरेण। लोकसभा निर्वाचनस्य सप्तमान्तिम चरणे अद्य 7 राज्यानां केन्द्रशासित प्रदेशस्य च 57 लोकसभासनेभ्यः मतदानं समजायत। चरणेऽस्मिन् पंजाबोत्तर प्रदेशयोः प्रत्येकं 13, पश्चिमबंगस्य 9, बिहारस्य 8, ओडिशायाः 6, हिमाचलप्रदेशस्य 4, झारखण्डस्य 3, चण्डीगढस्य च एकस्मै क्षेत्राय मतदानम् अभवत्। अस्मिन् चरणे आहत्य 4,900 जनाः प्रत्याशित्वेन स्वभाग्यं परीक्षन्तः सन्ति। प्रमुखेषु प्रत्याशिषु प्रधानमन्त्री, वरिष्ठ भाजपेति दलनेता नरेन्द्र मोदी, अनुराग सिंह ठाकुरः, रविशंकर प्रसादः, कंगना रनौतः, कांग्रेस दलनेता मनीष तिवारी, विक्रमादित्य सिंहः, राष्ट्रीय जनता दलस्य मीसा भारती, तृणमूल कांग्रेस दलनेता अभिषेक बनर्जी च अस्ति। अद्य एव ओडिशा विधानसभायाः अवशिष्टेभ्यः 42 आसनेभ्योऽपि मतदानम् अभवत्। अनेनैव सह हिमाचलप्रदेशस्य 6, बिहार उत्तरप्रदेश पश्चिमबंगालानाञ्च एकैकस्मै आसनाय उपनिर्वाचनमपि जातम्। एतन्मध्ये भौमवासरे सम्भावितायाः मतगणनायाः अपि सन्नद्धताः युद्धस्तरेण जायन्ते। लोकसभानिर्वाचनस्य अस्मिन् अन्तिमे सप्तमे च चरणे 5 वादनं यावत् 58% मतदानम् अभवत्। अरुणाचलप्रदेश सिक्किमयोः विधानसभानिर्वाचनस्य मतगणना श्वः भविष्यति। तदर्थञ्च सर्वविधसज्जताः सन्नद्धताश्च निर्वाचनायोगेन सन्ति साधिताः। मतगणना च प्रातः 6 वादनतः समारप्स्यते, यत्र प्रथमतया पत्राधारित पोस्टल बैलेट्स इत्येतेषां गणना भविष्यति। तदनन्तरं च यत्रांकितमतानां गणना भविष्यति। अरुणाचलप्रदेशस्य 60 विधानसभासु 10 विधानसभासनानि भाजपेति दलेन निर्विरोधरूपेण पूर्वमेव विजितानि सन्ति। अत्र मतदानम् अप्रैलमासस्य 21 दिनांके समजायत। तैलविपणन उद्योगैः व्यावसायिक परिपूरित वातेन्धनस्य मूल्येषु प्रायशः 70 रूप्यकाणाम् अपचितिः कारितास्ति। सहैव वायुयानेन्धने अपि 6.5% अवनतिः घोषितास्ति। पश्चिमोत्तरे मध्यभारते च भीषणतापप्रकोपात् जनाः सुखम् अनुभवन्ति। भारतर्तुविज्ञानविभागानुसारि उक्तेषु क्षेत्रेषु 1-2 डिग्री सेल्सियस मितपर्यन्तम् अपचितिः आगता। परञ्च पंजाब, हरियाणा, दिल्ली, राजस्थान, मध्यप्रदेश राज्यानां केषुचित् क्षेत्रेषु उष्णलहरी यथावदेव सम्भावितास्ति। अपि च देशस्य पूर्वीय राज्येषु ओडिशा, बिहार, झारखण्डेषु उष्णलहर्याः प्रकोपः दरीदृश्यते। विभागेनानेन पूर्वानुमानितः यत् प्रायद्वीपीय क्षेत्रेषु प्रमुखतया कर्णाटकस्य, केरलस्य च भागेषु केषुचित् तथा च तमिलनाडु रायसीमा इत्यनयोः केषुचित् प्रभागेषु प्राविट् स्थितिः अनुकूला वर्तते। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। प्रियाः श्रोतारः, संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः सम्बलितस्य संस्कृत साप्ताहिकीति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः एफएम गोल्ड प्रवाहिकातः रविवासरे मध्याह्ने सार्धैकवादनतः भविष्यति। भवन्तः सर्वे श्रोतुं प्रभवन्ति। उत्तराखण्डराज्ये चमोलीस्थिता पुष्पाणां विश्व न्यास उपत्यका अद्य पर्यटकेभ्यः उद्घाटिता। अद्य प्रातः अष्टवादने अष्टचत्वारिंशत् पर्यटकानां प्रथमं दलं घांगरिया क्षेत्रम् इति प्रख्यात उपत्यकां प्रति सम्प्रेषितवत्। नन्दादेवी राष्ट्रिय उद्यानस्य प्रभागीय वनाधिकारी बीबी मर्तोलियाः उक्तवान् यत् पुष्पोत्यकायाः पर्वाचारणाय भारतीयो नागरिकेभ्यः 200 रूप्यकाणि अपि च वैदेशिकेभ्यः 800 रूप्यकाणि शुल्करूपेण दातव्यानि भवन्ति। एषा उपत्यका अक्टूबर मासस्य 30 दिनांकं यावत् उद्घाटितास्ति। मुम्बय्यां जापानदेशस्य महावाणिज्यदूतेन यागी कोजी इत्यनेन समुदीरितं यत् महाराष्ट्रस्य चितेभ्यः छात्रेभ्यः प्रौद्योगिकीय प्रशिक्षु प्रशिक्षण कार्यक्रमान्तर्गतं जापानदेशे 3 पञ्चवर्षाणि यावत् वृत्त्यौ कौशलप्रशिक्षणं प्रदास्यति। तेनोदीरितं यत् महाराष्ट्रतः छात्राणां प्रथमसमूहः अस्मिन्नेव मासे जापानं प्रति गमिष्यति। साम्प्रतिके समये मुम्बय्यां जापानस्य महावाणिज्यकपदे आरूढ यागी कोजी इत्येषः अस्ति। शुक्रवासरे मुम्बय्याः राजभवने राज्यस्य राज्यपालेन रमेश बैस इत्यनेन सह निजवार्ताविधौ एतां वार्तां सह प्रकाशितवान्। अत्रावसरे राज्यस्य मुख्यसचिवः नितिनकरीरः अपि उपस्थितः आसीत्। पाकिस्तान सर्वकारेण इस्लामाबाद उच्च न्यायालयस्य समक्षं स्वीकृतं यत् पाकिस्तानाधिकृत कश्मीरं पीओके इति क्षेत्रं एकं वैदेशिकं क्षेत्रम् अस्ति इति। पाकिस्तानस्य अतिरिक्त अटॉर्नी जनरल इत्याख्येन न्यायाधीशेन प्रतिपादितं यत् कश्मीरस्य कविः पत्रकारः अहमद फरहाद शाहः पीओके क्षेत्रमध्ये आरक्षि निगडने वर्तते, अथ च असौ इस्लामाबाद उच्च न्यायालयस्य समक्षम् उपस्थापयितुं नैव शक्यते, यतोहि पीओके इति क्षेत्रम् एका वैदेशिकी भूमिः वर्तते, या खलु पाकिस्तानस्य अधिकारक्षेत्रे नैव आयाति। न्यायालयः पाकिस्तानस्य चाराभिकरणद्वारा रावलपिण्डीस्थितात् तस्य आवासात् शाहस्य अपहरणस्य अनन्तरं तस्य पत्न्या प्रस्तुतायाः याचिकायाः वादश्रवणं करोति स्म। शाहः विगत सप्ताहद्वयात् विलुप्तः वर्तते, अथ च सद्यः एव अभिज्ञातं यत् पीओके क्षेत्रस्य आरक्षिबलेन तं विरुध्य प्रकरणद्वयं पञ्जीकारितमस्ति। इस्लामाबादस्य उच्चन्यायालयेन परिपृष्टं यत् यदि पीओके एकं वैदेशिकं क्षेत्रम् अस्ति, पाकिस्तानस्य अभिन्नम् अंगं नास्ति चेत् तर्हि पाकिस्तानसैन्यबलानि, पाकिस्तानस्य रेंजर्सबलानि च अस्यां भूमौ कथं प्रविष्टानि अभूवन्। वादश्रवणस्य अवसरे उच्चन्यायालयस्य न्यायाधीशः मोहसिनः अख्तरः कयानी इत्यसौ जनानां बलाद् अपहरणस्य प्रथा प्रवर्तनार्थं पाकिस्तानस्य चाराभिकरणानां भृशाम् आलोचनां कृतवान्। अन्ते क्रीडावार्तायां, कुन्तक प्रक्षेपणे भारतस्य डीपी मनु इत्यनेन अद्य ताइवानदेशे 0.85-81 मीटरं यावत् कुन्तकं प्रक्षिप्य सर्वश्रेष्ठप्रदर्शनपूर्वकं स्वर्णपदकं विजितम्। चीनदेशस्य ताइपे के चाउत्सुन चेंग इत्यनेन च 0.21-76 मीटरं यावत् कुन्तकं प्रक्षिप्य रजतपदकं विजितम् इति वार्ताः।